कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आन शृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषुः शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभि चाकषे यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक् अहिगश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्र अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेरयीमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृणयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्जा याश्च देहस्त इषव पराता भगवो वप अवतत्यधनुस्त्वगम् सहस्राक्षशतेषु दे निशीर्य शल्याणामुका शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अतो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय త్రికాగ్ని కాలాయ కాలాగ్ని రుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. స్వస్తే జరాయ త్వషీమతే పథీనాం పతయే నమో నమో. బభ్లుషాయ వ్యవ్యాధినేనానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం పతయే నమో నమో. రుద్రాయాతతావినే క్షేత్రానాం పతయే నమో నమః. సోతాయాహంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్తపతయే వృక్షానాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్ష్యానాం పతయే నమో నమో. భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్దోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః. నమః సమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ. కగుమాయ నిషంగిణే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమ. శ్రీకావ్యభ్యో జిగాగం సద్భ్యో ముష్ణతాం పతయే నమో నమో. శివభ్యో నక్తం చరద్భ్యః ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషుమద్భ్యో ధన్వావిభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్యః ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్ఛద్భ్యో విసృజభ్యశ్చ వో నమో నమో. స్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ. ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమ. స్తిష్టద్భ్యో తావభ్యశ్చ వో నమో నమ. సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్త్రిగుంహదేభ్యశ్చ వో నమో నమో. గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో. వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విలోపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో. రతిభ్యో రతేభ్యశ్చ వో నమో నమో. రతేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమ. కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమ. पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः श्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिबिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोऽव्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो वृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सदस्याय च नमो नाद्याय च वैषन्दाय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिगत्याय च प्रभाह्याय च नम इरिण्याय च प्रपत्याय च नमः ಕೆಗುಂ ಶಿಲಾಯ ಚಕ್ಷಯನಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಬುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಸ್ತಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮಃ ಕಾರ್ತ್ಯಾಯ ಚ ಗಪರೇಷ್ಟಾಯ ಚ ನಮೋ ಹೃದಯ್ಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮಃ ಊರ್ಮ್ಯಾಯ ಚ ಸೂರ್ಮ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮೋ ಪಘುರಮಾಣಾಯ ಚ ವಿಘ್ನತೇ ಚ ನಮಃ ಆಖ್ಯದತೆ ಚ ಪ್ರಖ್ಯದತೆ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ಮತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೀಭತ್ಕೇಭ್ಯಃ ದ್ರಾವೇ ಅಂಧ್ರದಸ್ಪತೆ ದರಿದ್ರಂ ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋವೋ ಯೇಷಾಂ ಕಿಂಚನ ಮಮತ ಯಾತೇ ರುದ್ರ ಶಿವ ತನೋ ಶಿವ ವಿಶ್ವಾಃ ಭೇಷಜಿ ಶಿವ ರುದ್ರಸ್ಯ ಭೇಷಜಿ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೇರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತೆ ಕ್ಷಯದ್ವೇರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಜಯೋಶ್ಚ ಮನುರಾಯಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತ ಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷತಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಶ್ವರೀರಿಷಃ ವೀರಾನ್ಮಾನೋ ರುದ್ರಭಾಮಿತೋ ವದೇರ್ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾಧ್ಯೇ ಗೋಗ್ರ ಉತ ಪೌರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುನ್ನಮಸ್ವೇತೆ ಅಸ್ತು ರಕ್ಷಾ ಚ ನೋ ಅಧಿಜ ದೇವ ಬ್ರೂಯದಾ ಚ ನ ಶರ್ಮ ಯಚ್ಚ ದ್ವಿವರ್ಹಾ ಸುಹಿಶ್ರುತಂ ಗರ್ತ ಸದಂಯುವಾನಂ ಭೃಗನ್ನ ಭೀಮಮುಪಹತ್ವಮುಗ್ರಂ ಮೃಡಾ ಚ ರಿತ್ರೇ ರುದ್ರಸ್ತವಾನು ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತೇ ವಿಡಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮದಿರಗಾಯೋ ಅವಸ್ಥಿರ ಭಗವದ್ಭ್ಯಸ್ತನುಷ್ವೀಡಸ್ತೋಕಾಯ ತನಯಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾರ ಆಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸೇ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂಥುತಾ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾಮುಕಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ಪೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ವಧನ್ವಾ ನಿಧನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೆ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿ ಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾ ನೀಲಗ್ರೀವಾಶಿ ಕಂಠಾ ದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮೇ ಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾ ಸಕ್ಕಪರ್ದಿನಃ ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पदाम् पतिरक्षय ऐलभृदायव्युदः ये तेतानि प्रचलन्ति श्रृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोद्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्णो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेयान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमश्चु हि यस्विषस्वदन्वायो विश्वस्य क्षयति वेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयम् शिवाभिमर्षणः शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेमावर्धन्तु भाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे चर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे
ಶಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸೇರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುಧಿರಂ ಚ ಮೇ ಓರ್ಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸದ್ಯಶ್ಚ ಮೇ ಸಪೀತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮೌದ್ಭಿದ್ಯಂ ಚ ಮೇ ರಯಿಶ್ಚ ಮೇ ರಾಗಶ್ಚ ಮೇ ಪುಷ್ಟರಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಚ ಮೇ ಪ್ರಭು ಚ ಮೇ ಬಹುಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೋಯವಶ್ಚ ಮೇನಂ ಚ ಮೇ ಶುಚ್ಚ ಮೇ ಬ್ರೀಹಯಶ್ಚ ಮೇ ಯವಶ್ಚ ಮೇ ಮಾಶಶ್ಚ ಮೇ ತಿಲಶ್ಚ ಮೇ ಮುದ್ಗಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಧುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನೀವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾ ಚ ಮೇ ಮೃತ್ತಿಕಾ ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಶೇಷಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರುಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪತ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟಪತ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏಮಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೌ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೇ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶ ಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಗುಂಶುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇಧಾಭ್ಯಶ್ಚ ಮೇಧಿಪತಿಶ್ಚ ಮ ಉಪಾಗುಂಶುಶ್ಚ ಮೇ ಅಂತರ್ಯಾಮಶ್ಚ ಮ ಐಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರಾ ವರುಣಶ್ಚ ಮ ಅಶ್ವಿನಶ್ಚ ಮೇ ಪ್ರತಿ ಪ್ರಸ್ಥಾನಶ್ಚ ಮೇ ಶುಕ್ರಶ್ಚ ಮೇ ಮಂತೇ ಚ ಮ ಆಗ್ರಯಣಶ್ಚ ಮೇ वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मेति ग्राह्याकाश्च मैन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतेयाकाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे वात्रीवतश्च मे हार्योजनश्च मे इद्मश्च मे भर्गश्च मे भेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च च माधवनीयश्च माग्नेर्द्रम् च मे हविर्धानम् च मे गृहाश्च मे तदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे चक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च मे साम च मे सोमश्च मे यजुश्च मे देशा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथम् धरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाट्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौ हि च म उक्षा च मे वशा च म ऋषभश्च मे वेहच्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्त विगुंशतिश्च मे नव विगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे साविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे ष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च
ఇడా దేవోర్మనుర్యజ్ఞనిర్బృహస్పతిరుద్ధా మదాని షగుంసిషద్విశ్వే దేవాసోక్తవాచ పృథివీమాతర్మా మాహిగుంసేర్మధుమరిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమదే దేవేభ్యో వాచముద్యాసగుం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవా అవందు శోభాయై పితరోను మదందు ఓం శాంతి 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 ఓం తచ్చయోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞవతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ఓం శాంతి 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 సహస్రశీర్ష పురుష సహస్రాక్ష సహస్రపాద్ స భూమిం విశ్వతో వృత్వా అత్యతిష్టద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృదత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతో జాయాగశ్చ పురుషః పాదోస్య విశ్వభూతాని త్రిపాదస్యామృతం దివి త్రిపాదోర్ధ్వౌదైః పురుషః పాదోస్యేహా భవాత్ పునః తతో విశ్వం యక్రామత సాశరానశనే అభి తస్మాత్ విరాడ జాయత విరాజో అధిపురుషః స జాతో అత్యరిచ్యత పశ్చాత్ భూమిమతో పురః యత్ పురుషేణ హవిషా దేవా యజ్ఞమతన్వత వసంతో అస్యాసీదాజ్యం గ్రీష్మ యద్మ శరద్ధవిః సప్తాస్యాసన్ పరిధయః త్రిసప్త సమిధః క్రతాః దేవాయజ్ఞజ్ఞం తన్వానాః అబధ్నన్ పురుషం పశుం తయ్యజ్ఞం బరిహిషి ప్రోక్షన్ పురుషం జాతమగ్రతః తేన దేవాయజంత సాధ్యార్షయశ్చయే తస్మాద్యజ్ఞాత్ సర్వహుతః సంభృతం వృషదాజ్యం పశోగస్తాగశ్చక్రే వాయవ్యాన ఆరణ్యాన్ గ్రామ్యాశ్చయే తస్మాద్యజ్ఞాత్ సర్వహుతః వృచ సామాని జగ్నిరే ఛందాగుంసి జగ్నిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకేజో భయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్ పురుషం వ్యదధుః కదిదావ్యకల్పయన్ ముఖం కిమస్య కౌ బాహో కా ఊరోపాదావుచ్చేతే బ్రాహ్మణోస్య ముఖమాసీత్ బాహోరాజన్యః కృతః ऊरो तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणात् वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाविव धन्यदासे धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा तन्वशे ग्रीष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुम् राजा अप्येषागस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमै यमस्य जम्भयो आदधामि तथा हि तत् खण् फण्सि शान्ति 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 ॐ आतो न इन्द्रक्षुमन्तम् चित्रम् ग्रावम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विगोर्मिम् तु विदेष्णम् तु विमगम् तु विमात्रमवोभिः न हि त्वा शूरदेवानमत्ता सोदित्सन्तम् भीमम् नगाम् पारयन्ते एतोन्विन्द्रम् सवामेशानम् वस्वस्वराजम् न राधसामद्भिषन्नः रस्वोषदुपगासि चक्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनापि सव्येन प्रमृषा इन्द्रमानो वसोर्निर्भाक् उपक्रमस्वा भरदृषदा धृष्णो जनानाम् अदाशोश्चरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् सनुहि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशैश्च वक्षो जरन्ते गणानाम् त्वा गणपतिम् भवामहे कविम् कवीणामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतान शृण्वन् ज्योतिभिः सेदसादनम् निशुषेद गणपते गणेषु त्वामाहुर्विप्रथमम् कवीनाम् नरुते त्वक्रियते किञ्चनारे महामर्कम् मघवञ्चित्रमच्च अभिख्यानो मघवन्नाधमानाम् सखे बोधिवसुपते सखीनाम् रणम् कृधिरणकृत्सत्यशुष्मा भक्ते चिदाभज राये अस्मान् शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवच्चसायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् सरस्वत्यै भैषज्येन वीद्यायानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम् उष्णो हस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभि निषिञ्चामीन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते त्वा साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तरान् देव यज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यात् तदुद्यात् तदस्मै देवाराधन्ताम् द्रुपदादिवेन मुमुचानः छिन्नस्दाद्विमलादिवा ओतम् पवित्रेणेवाज्यम् आपश्युन्दन्तु मैनसः भूर्भुवस्सुवो भूर्भुवस्सुवो भूर्भुवस्सुवः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेतामागृध कस्य स्विद्धनम् कुर्वन्नेवेह कर्माणि जिधि विषि क्षतगुम् समाः एवम् त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्या नामते लोका अन्धेन तमसा भृताः सागस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः अनेजदेकम् मनसो जवेयो नैनदेवा आप्नुवन्पूर्वमर्षत् तद्धावतो ज्ञानत्ये तिष्ठत्तस्मिन् नभो मातरिष्वा दधाते तदेजति तन्नेजति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यत्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैव भू द्विजानतः तत्र को मोहकशोक एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमव्रणमस्नाभिरगुम् शुद्धमपापविद्धम् कविर्मनीषी परिभो स्वयम् भूर्या सत्यतोर्धान्व्यदधाच्छाश्वतेभ्यः समाभ्यः अन्धम् तमप्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोय उविद्याया गुम्रताः अन्यदेवाहुर्विद्यया अन्यदा गुरविद्यया इति शुश्रुमधीराणाम् येनस्तद्विचक्षिरे विद्याम् च यस्तद्वेदो भयगुंसः अविद्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तभोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदा पुरसम्भवात् इति शुश्रुवधीराणाम् येनस्तद्विचक्षिरे सम्भोरिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तेत्वा सम्भोत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् सत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षेयमचोर्यप्राजा पत्यव्यो हरश्मीन् सवो भते जो यत्ते रूपम् कल्याणतमम् दत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमधेदम् भस्मान्तगुम् शरीरम् ॐ क्रतो स्मर कृतगुस्मर क्रतो स्मर कृतगुस्मर अग्ने नय सुपथा राये अस्मान् विश्वानि देववयुनानि विद्वान् युयोद्यस्मज्जुहुरानमेनो भूयिष्ठान्ति नम उक्तिम् विधेम पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपते ब्रह्मणोऽधिपते ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विश्वोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातम् तद्विप्रासो विपन्यवो जाग्रवागुम् सत्समिन्दते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् न कर्मणा न प्रजया धनेन त्यागेणैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विप्राजदेतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगाद्यतयच्छुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमद्य सद्गुस्तम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्त तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति।